महात्रिपार्श्वे जतति रमन्तं सम्पूज्यमानं सततं मुनीन्द्रे सुरासुरेण क्षमहोरगाभिः केदारमीशं शिवमेकमीडे केदारनाथं शरणं प्रपद्ये केदारलिङ्गं च उदारलिङ्गं श्रीशूलपाणिं भवतु मुखभाजं केदारपीठे सुरपूजितात्मा केदारनाथं मनसा स्मरामि केदारनाथं शिरसा नमामि। बोलो केदारेश्वर महादेव की जय।